नमस्तुभ्यं प्रसीद मम भास्कर दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते। नव नवोत्सव शालिनी खल्वियं भारत भूः दीपावल्यां विश्वं संस्कृत दीप्त्या प्रज्वाल्य इदानीं भ्रातृत्वं अरुण निगम गम्यं आदित्य मूर्तिं सकल भुवन वंद्यं भास्करं च संपूजयितुं तत्पराः मे सखायः। समेभ्यः संस्कृत साप्ताहिक्यां भूयांसि अभिनन्दनानि। स्वागतं च अहं निधि झाः व्याहरामि। उच्यते किल अनेक शास्त्रं बहुवेदितव्यं अल्पश्च कालो बहवश्च विघ्नाः। यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् इति। तद्वदेव अल्पैः एव शब्दैः सुभाषितानि जीवनस्य सारं प्रकटयन्ति। तदिदं शृण्मः मित्रस्य जतिनस्य निःस्वनेन।
रक्यो वारयितुं जलेन हुतभुक्षत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्दभः व्याधिर्भेषजसङ्ग्रहैश्च विविधै मन्त्रप्रयोगैर्विषम् सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्। अग्नि को पानी से शांत किया जा सकता है, छाते से सूर्य की धूप को, तीक्ष्ण अंकुश से हाथी को, डंडे से मदोन्मत्त पशुओं को काबू किया जा सकता है, अलग अलग औषधियों से रोग को और विविध मंत्रों से विष को दूर किया जा सकता है। शास्त्रों में प्रत्येक चीज के लिए औषध है, लेकिन मूर्ख के लिए कोई औषध नहीं है।
साहित्य संगीतस्य महती प्रशंसा राष्ट्रेऽस्मिन् क्रियते, यतो हि सर्वे अपि अत्र सहृदयाः एव ताल वाद्यानुगंगीतं नटीभिर्यत्र गीयते। नृत्यस्यानुगतं रंगेति तत्संगीतम् उच्यते। तादृशस्य संगीतस्य सूत्रेण सर्वानपि अनुबध्नाति साधना शर्मा।
ॐ ह्रीं षष्ठी देव्यै स्वाहा, नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः। शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः। वरदायै पुत्रदायै धनदायै नमो नमः। सुखदायै मोक्षदायै षष्ठी देव्यै नमो नमः। षष्ठ्यै षष्ठांशरूपायै सिद्धायै च नमो नमः। मायायै सिद्धयोगिन्यै षष्ठी देव्यै नमो नमः। सारायै शारदायै च परादेव्यै नमो नमः। बालाधिष्ठात्रिदेव्यै षष्ठी देव्यै नमो नमः। कल्याणदायै कल्याण्यै फलदायै च कर्मणां प्रत्यक्षायै स्वभक्तानां षष्ठी देव्यै नमो नमः। पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु देवरक्षणकारिण्यै षष्ठी देव्यै नमो नमः। शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा हिंसा क्रोधवर्जितायै षष्ठी देव्यै नमो नमः। धरं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि, मानं देहि जयं देहि द्विषो जहि महेश्वरि, धर्मं देहि यशो देहि षष्ठी देव्यै नमो नमः। देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते, कल्याणां च जयं देहि षष्ठी देव्यै नमो नमः। इति देवीं च संस्तूय लवते पुत्रं प्रियव्रतः, यशस्विनं च राजेन्द्र षष्ठी देव्यः प्रसादतः। षष्ठी स्तोत्रमिदं ब्रह्मन् यः शृणोति तु वत्सरम्, अपुत्रो लवते पुत्रं स्वरं सुचिरजीविनम्। वर्षमेकं च यो भक्त्या सम्पूज्येदं शृणोति च, सर्वपापा विनिर्मुक्तो महावन्ध्या प्रसूयते। वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनं, सुचिरायुष्वन्तं च सूते देवी प्रसादतः। काकवन्ध्या च या नारी मृतवत्सा च या भवेत्, वर्षं श्रुत्वा लभेत् पुत्रं षष्ठी देवी प्रसादतः। रोगयुक्ते च बाले च पिता माता शृणोति चेत्, मासेन मुच्यते बालः षष्ठी देवी प्रसादतः। श्री षष्ठी देव्यै नमो नमः।
अस्मिन् विश्वे प्रतिक्षणं किञ्चित् नूतनं सम्भवति इति तु विदितमेव। कदाचित् सर्वाः अपि घटनाः अस्माकम् अक्षिपथं न आयान्ति, अतः तत्सर्वं सङ्कलय्य वार्तां श्रावयति ऋचा।
प्रधानमन्त्री नरेन्द्र मोदी गोवा कारावार तटयोः आईएनएस विक्रांत याने नौसैन्यस्य कर्मचारिभिः सह दीपोत्सवम् आचरितवान्। सममेव प्रोक्तवान् यत् आईएनएस विक्रांतः आत्मनिर्भर भारतस्य मेड इन इण्डिया इत्येतयोः विशालः प्रतीकः अस्ति। वियतनाम देशस्य हाईफोंग नगरे संजातायां एशियाई नौकायन प्रतिस्पर्धायां भव्य प्रदर्शनं कुर्वता भारतदलेन त्रीणि स्वर्ण पदकानि विजितानि। बलूचिस्तानस्य विभिन्न भागेभ्यः पाकिस्तानी सुरक्षाबलेन अष्ट नागरिकाः बलपूर्वकं विलोपिताः। जीएसटी इत्यस्य द्वितीय संस्करणस्य परिष्कारेण देशस्य अर्थव्यवस्था महतीं वृद्धिम् अवाप्नोत्। देयमितौ च अपचिति लाभः सामान्य जनेभ्यः प्रदीयते इति। रक्षामन्त्री राजनाथ सिंहः, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः च लखनऊ नगरस्य ब्रह्मोस एरोस्पेस यूनिट इत्यस्मिन् एकांशे निर्मितानां ब्रह्मोस प्रक्षेपास्त्राणां प्रथमसमूहं ध्वजारोहणपूर्वकं देशसेवायै समर्पितवन्तौ। भारतेन जगतः सम्पूर्ण वनक्षेत्रे नवमी स्थानं प्राप्य वैश्विक पर्यावरण संरक्षणे महत्वपूर्णोपलब्धिः अधिगता। वार्षिक वनक्षेत्र वृद्धौ भारतस्य तृतीयं स्थानं यथावत् वर्तते। देशस्य नवीकरणीयोर्जा क्षमतायां विगतेषु एकादश वर्षेषु उल्लेखनीया वृद्धिः जातः।
दुर्लभं त्रयमेवैतत् देवानुग्रह हेतुकं मनुष्यत्वं मुमुक्षुत्वं महापुरुष संश्रयः इति लोके श्रूयते। सत्यमेव इदं वचनं खलु? अतः एव अस्माभिः प्रतिसप्ताहं कञ्चित् विद्वांसम् अस्मिन् प्रभागे आहूय तेषां प्रेरणावचांसि आकारयामः। तदद्य प्रस्तवीति सुरेशचन्द्र शर्मा।
प्रियाः विद्याधराः श्रोतृवर्याः, संस्कृत साप्ताहिकी इति कार्यक्रमस्य ज्ञान विज्ञान प्रभागे एकवारं पुनः समेषाम् अभिनन्दनम्। मित्राणि, यथा भवन्तः जानन्ति यत् एतस्मिन् प्रभागे ज्ञान विज्ञान संस्कृत संस्कृति धारिणः अतिथि महोदयाः स्वीय आशिषा ज्ञान प्रवाहेण च अस्मान् अनुरञ्जयन्ति। एतस्मिन् क्रमे अद्य आकाशवाण्याम् अस्माभिः सह समुपस्थिताः सन्ति वेदान्त शास्त्रज्ञाः, नैकैः पुरस्कारैः सभाजिताः जयपुरस्थस्य जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य कुलपति पदासीनाः मान्याः प्रोफेसर राम सेवक दुबे वर्याः। दुबे महाभागानाम् एतस्मिन् संवाद प्रभागे आकाशवाणी पक्षतः अहं सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च करोमि।
आकाशवाण्याः सर्वेषां श्रोतॄणां कृते मम प्रोफेसर राम सेवक दुबे कुलपतेः जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य नमस्काराः।
मान्यवर्याः, कार्यक्रमस्य एतस्य प्रारम्भिके अंशे प्रश्नः यत् यथा सर्वे जानन्ति यत् एषा संस्कृतभाषा समेषां भाषाणां जननी दैवभाषारूपेण पूज्यते च, अतः एतस्याः दैवभाषायाः संस्कृतभाषायाः अभ्युदयाय प्रचाराय प्रसाराय च अस्माभिः किं करणीयं तद्विषये कृपया ज्ञापयन्तु।
समीचीनं ते प्रश्नः। सम्प्रति संस्कृतभाषायाः अभ्युदयाय प्रचाराय प्रसाराय किं करणीयम् अस्माभिः, अथ च संस्कृतभाषायां ये शास्त्राणि सन्ति तेषां लोकोपकाराय कथम् उपयोगः भूयात्, इदमपि विचारणीयं वर्तते। अस्य कृतेऽपि अस्माकं संस्कृतसमुपासकानाम् अतिमहत्वपूर्णं दायित्वं वर्तते। अतश्च सर्वैरस्माभिः संस्कृतभाषायाम् एव सदा वार्ताकार्या, बालकेषु युवकेषु च इयं प्रेरणा दातव्या यत् ते संस्कृतसाहित्यं पठन्तु, संस्कृतभाषायाम् आकाशवाणिना प्रसारिताः वार्ताः शृण्वन्तु, तथा च विद्यालयेषु सततम् अस्य विषये शिक्षकाणां सहयोगं प्राप्नुवन्तु।
अहो, भवद्भिः सम्यक्तया ख्यापितः एषः विषयः। महोदयाः, सम्प्रति प्रश्नः यत् भवन्तः तु वेदान्तशास्त्रज्ञाः, वेदान्तक्षेत्रे भवद्भिः नैके उपलब्धयः अपि समधिगताः सन्ति। सम्प्रति ज्ञातुमिच्छाम यत् वेदान्तः किं भवति, तस्य माहात्म्यं किम् इति विषये शास्त्रवचनं कृपया उपस्थापयन्तु।
साधु पृष्ठम भवता वेदांत दर्शनस्य महात्म्यम्। वस्तुतस्तु संस्कृत वाङ्मये यद्यपि बहूनि शास्त्राणि सन्ति, परन्तु वेदांत शास्त्रस्य तावत् अनिर्वचनीयं महात्म्यं वर्तते। तत्र एका जिज्ञासा भवति यत् किं तावत् वेदान्तोनाम्। अत्र आचार्यः वदति वेदान्तोनाम् उपनिषत् प्रमाणं शारीरिक सूत्रादीनि च, अर्थात् सर्वाः उपनिषदः तथा च वादरायणाचार्य कृतानि सर्वाणि ब्रह्मसूत्राणि, अथ च महाभारतस्य युद्धे रणक्षेत्रे यदा अर्जुनः व्यामोहं गतः तदा भगवता श्रीकृष्णेन उपदिष्टं गीताशास्त्रम्। अस्य शास्त्रवाङ्मयस्य प्रस्थानत्रयरूपेण प्रसिद्धिरस्ति। अनेन वेदान्तशास्त्रेण जनानां दुःखनिवृत्तिर् तथा भगवतः श्रीरामस्य शरणागतिः भवति। मानवजीवनस्य इदमेव परमं लक्ष्यं मनीषिणः वदन्ति।
अस्तु महोदयाः, सम्प्रति ज्ञातुमिच्छामः यत् भवतां विश्वविद्यालये वेदान्तशास्त्रः कथं केन प्रकारेण च पाठ्यते, अद्वैत विशिष्टाद्वैत इत्यादि विषयाणाम् अध्यापनविषये कृपया ज्ञापयन्तु।
सम्प्रति जगद्गुरु रामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयेऽपि संस्कृतभाषायाः प्रचाराय प्रसाराय सर्वे आचार्याः सन्नद्धाः। अस्मिन् विश्वविद्यालयेऽपि वेदान्त विभागः वर्तते। तस्मिन् विभागे अद्वैत विशिष्टाद्वैत अथ च साङ्ख्योगमीमांसादि द्वादश दर्शनानां शिक्षा दीयते। आचार्याः डाक्टर् महेश शर्माणः अस्य दर्शनविभागस्य अध्यक्षाः वर्तन्ते। ते तु अहर्निशं संस्कृतभाषायाः अथ च वेदान्तशास्त्रस्य प्रचाराय प्रसाराय सन्नद्धः। महान् आमोदस्य विषयोऽयं यत् खलु दर्शनविभागेन अस्मिन्नेव मासान्ते एका त्रिदिवसीया राष्ट्रिया सङ्गोष्ठी आयोजितमस्ति। तत्र देशतः विदेशतः वा बहवः आचार्याः समागमिष्यन्ति तथा वेदान्तशास्त्रे जगद्गुरुरामानन्दाचार्यस्य दर्शन संसारः इति विषयमधिकृत्य विदुषां सम्मेलनं तथा च व्याख्यानानाम् आयोजनम् अथ च शोधपत्राणां वाचनं भविष्यति। अनेनापि संस्कृतभाषायाः प्रचारः प्रसारः भविष्यति।
महाभागाः, कार्यक्रमस्य एतस्य अन्तिमे अंशे प्रश्नः यत् सामान्यजनेभ्यः विशेषतः युवछात्रेभ्यः भवतां सन्देशः उपदेशो वा कः येन सारल्येण धर्मपालने समर्थाः भवितुं शक्नुमः।
छात्राणां कृते अस्माकं सन्देशः उपदेशो वा एवमेवास्ति यत् भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। संस्कृतभाषाज्ञानं विना आत्मज्ञानं नैव भवितुमर्हति। भारतदेशस्यापि ज्ञानं नैव भवितुं शक्यते। भारतस्य सनातनधर्मस्य विषयेऽपि नैव ज्ञातुं शक्यते। अतश्च स्वस्य विषये, स्वस्य देशस्य विषये, धर्मस्य धर्माधर्मस्य वा विषये यदि कश्चित् ज्ञातुमिच्छति तत्तु संस्कृतेन विना न सम्भवति। अतश्च संस्कृताध्ययनम् अवश्यमेव विधेयम्। जयतु संस्कृतम्, जयतु भारतम्।
मान्यवर्याः, संस्कृतभाषायाः विशेषतः वेदान्तशास्त्रविषये ख्यापितैः भवद्वचनैः वयं धन्याः। भवच्चरणयोः अभिनन्दनकुसुमाञ्जलिं समर्पयामः। एतस्मै संवादाय पौनःपुन्येन वारं वारं हार्दाः धन्यवादाः, सादरं प्रणामः।
आकाशवाण्याः सर्वेषां श्रोतॄणां, देशस्य संस्कृतानुरागिणां, भवतां कृतेऽपि जगद्गुरुरामानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य अयं कुलपतिः नाम्ना प्रोफेसर रामसेवक दुबे भूयो भूयः प्रणमति।
अहो रम्यम्, ज्ञानदीप प्रज्वालितवते विद्वद्वरेण्याय भूयांसि धन्यता वचांसि आविष्करोमि। अमीषाम् आचार्याणां वाण्या नितराम् आनन्दिताः स्मः, धन्यवादाः। संस्कृत दिग्दर्शन खण्डे भवतां स्वागतम्। भारतस्य अस्मितायाः, संस्कृतेः विचार परम्परायाः च भाषायाः विषये वयं चर्चां करिष्यामः। अद्यत्वे संस्कृतं केवलं ग्रन्थेषु मन्दिरेषु एव सीमितं नास्ति, विश्वविद्यालयेषु विद्यालयेषु शोधसंस्थासु च एतत् पुनः जीवति। जनाः भाषन्ते गायन्ति च विज्ञानं साहित्यं योगः आयुर्वेदः रङ्गमञ्चः इत्यादयः विषयाः संस्कृतस्य माध्यमेन कथं नूतनम् आयामं प्राप्तवन्तः इति कथयति मुदिता वेतालः।
केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरे सप्तदिवसीया पञ्चाङ्ग संशोधन कार्यशाला आयोज्यते। इयं कार्यशाला बुधवासरे अक्टूबर द्वाविंश्याम् आरब्धा। केन्द्रीय संस्कृत विश्वविद्यालयस्य लखनऊ परिसरे एषमः राज्यस्तरीया शास्त्रीया स्पर्धा नवम्बर मासे आयोजयिष्यन्ते। तदर्थं पञ्जीकरणस्य अन्तिमावधिः नवम्बर मासस्य प्रथमो दिवसः विद्यते। धन्यवादः।
भवत्येव अस्मिन् कार्यक्रमे कश्चन विशिष्टः अंशः समेभ्यः संस्कृत आराधकेभ्यः तत्र बालेभ्यः चित्ततोषाय ज्ञानार्जनाय च हितकथावल्लरीम् अस्यां बालवल्लर्यां श्रावयति सुषमा कुमारी।
अहो बालाः, अद्य वयं बालमनोवल्लर्यां अतिथिनां विषये जानीमः। अतिथि देवो भव। भारतीय संस्कृतौ अतिथीनां नितरां महत्त्वमस्ति। अतिथिदेवो भव इति उपनिषदः वचनमस्ति। अस्माकं देशे न केवलं मनुष्याः अपि तु अन्यप्राणिनः अपि अतिथिभावेन पूज्यन्ते। अतिथिसेवा पञ्चमहायज्ञेषु अन्तर्भवति। तादृशः कश्चन प्रसङ्गः अत्र पाठे दर्शितः। राधिका एषु दिनेषु वर्धमाना एव चलति, यतः गृहे नूतनाः अतिथयः सन्ति, ते च विशिष्टाः सन्ति। माता पुत्रौ पुत्र्यौ च मिलित्वा ते च पञ्च सन्ति। अहोरात्रं तस्याः चिन्ता एकत्र एव गृहस्य छद्यः उपरि, तत्र एव तस्याः मनः अस्ति। कुतूहलमस्ति केते इति? ते न अन्ये, काचित् मार्जारी, तस्याः चत्वारः शावकः च। आम्, ते एव विशिष्टाः अतिथयः। सा तु तेषां नामानि अपि चिन्तितवती, तन्वी मृद्वी शबलः भीमः च इति। पितामही राधिकायाः कार्यकलापान् दृष्ट्वा हसति। सा राधिकां वदति, राधिके अतिथयः कदा आगच्छन्ति इति न जानीमः, किन्तु यदा ते अत्र आगच्छन्ति तदा तेषां तादृशी एव सेवा करणीया। राधिका वदति, अस्तु करोमि, किन्तु किमर्थम्? मातामही वदति, अतिथि देवो भव, अर्थात् अतिथिः अस्माकं देवः अस्ति इति चिन्तयतु, तस्य आदरेण सेवां करोतु। राधिका आदिनं मन्त्रम् इव वारं वारं वदति, अतिथि देवो भव, अतिथि देवो भव इति।
ब्राह्मी तु भारती भाषा, गीर्वग्वाणी सरस्वती इति भाषां सरस्वत्याः प्रतिरूपमिति मन्यमानाः वयं भारतीय भाषा परिवारं भारतस्य गौरवभूतम् इत्यपि मुहुर्मुहुः चिन्तनं कुर्मः। अतः एव विविध भाषाभिः भारतस्य गौरवगाथां निगदति ललित मोहन तिवारी।
प्रथमं वाक्यमस्ति, छठ पर्व सूर्यदेवस्य उपासनायाः पवित्रं पर्व अस्ति। छठ पर्व सूर्यदेव की उपासना का पवित्र पर्व है। मैथिली भाषा में छठ पर्व सूर्यदेव की उपासना के पवित्र पर्व छय। द्वितीयं वाक्यमस्ति, एतत् पर्व मुख्यतः बिहार झारखंड पूर्वी उत्तर प्रदेश चेत्येतेषु क्षेत्रेषु श्रद्धापूर्वकं आमान्यते। यह पर्व मुख्यतः बिहार झारखंड और पूर्वी उत्तर प्रदेश में बड़ी श्रद्धा से मनाया जाता है। मैथिली भाषा में ई पर्व मुख्य रूप से बिहार झारखंड पूर्वी उत्तर प्रदेश में बड़ी उत्साह से मनायल जाय छे। तृतीयं वाक्यमस्ति, अस्मिन् पर्वणि जनाः निर्जलम उपवासम कृत्वा सूर्याय अर्घम यच्छन्ति। इसमें लोग निर्जला उपवास रखकर सूर्य को अर्घ देते हैं। मैथिली भाषा में ई पर्व में पवनेति निर्जला उपवास राख कर सूर्य के अर्घ देई छथिन।
प्रियाः मे श्रोतारः, यथाक्रमं कार्यक्रमोऽयं समाप्तिपदं सम्प्राप्तो विद्यते। निवर्तनस्य कालेऽस्मिन् भवतां भवतीनां च समुपस्थित्या नितान्तं हर्षमनुभवति ऐक्येन भवतां समेषामपि अहं निधिझा कार्तज्ञवचांसि आविष्कुर्वती नवीनाङ्कं यावत् भवतः भवतीश्च प्रतीक्षन्ति सर्वानपि अभिवन्द्य प्रतस्थे। जयतु संस्कृतं, जयतु भारतम्। जियात् गीर्वाण भारती।